देवसुवामेतानि हवीषुंषि भवन्ति एतावन्तो वै देवानागम् सभाः तगेवास्मै सभान् प्रयच्छन्ति तगेन गुम् सुवन्ते अग्निदेवेण गृहपतीनागुम् सुवते सोमो वनस्पतीनाम् रुद्रः पशूनाम् बृहस्पतिर्वाचाम् इन्द्रोज्येष्ठानाम् मित्रः सत्यानाम् वरुणो धर्मपतीनाम् एतदेव सर्वम् भवति सविता त्वा प्रसवानागुम् सुमदामिति हस्तम् गृह्णाति प्रसूत्यै ये देवादेवसुपस्थेत्याह यथा यजुरेवैतत् महते क्षत्राय महताधिपत्याय महते जानराज्यायेत्याह आशिषमेवैतामाशास्ते एषवो भरता राजा सोमोऽस्माकम् ब्राह्मणानागुम् राजेत्याह तस्मात् सोमराजानो ब्राह्मणाः प्रदित्यन्नाम राज्यमधायीत्याह राज्यमेवास्मिन् प्रतिदधाति स्वाम् तनुवम् वरुणाशिश्रेदित्याह वरुणसममेवावरुन्धे शुचेर्मित्रस्य वृत्त्या भूमेत्याह शुचिमेवैनम् वृत्त्यम् करोति अमन्महिमहदर्दस्य नामेत्याह मनुत एवैनम् सर्वे व्राता वरुणस्य भूवन् नित्याः सर्वव्रातमेवैनम् करोति विमित्रय वैरराजमता वेदित्याः अराजमेवैनम् तारयति असौषदम् यज्ञया ऋतेनेत्याह सुरयत्येवैनम् वितृतोजविमानम् नित्याः आयुरेवास्मिन् दधाति द्वाभ्याम् विमृष्टे दिवाद्यजमानः प्रतिष्ठित्यै अग्ने सोमीयस्य चैकादशकपालस्य देव सुवाञ्च हविषामग्नये सृष्टकृते समवद्यते देवताभिरेवैणमुभयदः परिगृह्णाति विष्णुक्रमान् क्रमते विष्णुरेव भूत्रेमान् लोकानभिजयति अर्थेतस्थेति जुहोति आहुत्यैवेना निष्क्रिय गृह्णाति अथोहविष्कृतानामेवाभिकृतानाम् गृह्णाति अहन्तीनाम् गृह्णाति एतावा अपागम् राष्ट्रम् राष्ट्रमेवास्मै गृह्णाति असो श्रियमेवैनमभिवहन्ति अपाम् पतिरसीत्याह मिथुनमेवागः वृषा सूर्मिरित्याह ऊर्मिमन्तमेवैनम् करोति वृषसेनोऽसीत्याह सेनामेवास्मिसद्गश्यति प्रदक्षितस्थेत्याह एतावा अपाम् विषः विषमेवास्मै पर्यूहति मरुतामोजस्थेत्याह अन्नम् वै मरुतः अन्नमेवावरुन्धे सूर्यवर्चसस्थेत्याह राष्ट्रमेव वर्चस्यकः सूर्यत्वजसस्थेत्याह सत्यम् वा एतत् यद्वर्षति अनृतम् यदातपतिवर्षति सत्यानृते एवावरुन्धे नैनकम् सत्यानृते उदिते हिग्गस्तः एवम् वेद माम् दास्थेत्याह राष्ट्रमेव ब्रह्मवर्चस्यकः पाशास्थेत्याह राष्ट्रमेव वश्यकः शक्परीस्थेत्याह पशुवो मे शक्परीः पशूनेवावरुन्धे विश्वभृतस्थेत्याह राष्ट्रमेव पयस्यकः जनभृतस्थेत्याह राष्ट्रमेवेन्द्रियाव्यकः अग्नेस्तेजस्यास्थेत्याह राष्ट्रमेव तेजस्यकः अपामोषधीनागुणतस्थेत्याह राष्ट्रमेव मधव्यमकः सारस्पतम् ग्रहम् गृह्णाति येषा वा अपाम् पृष्ठम् यत्सरस्वती पृष्ठमेवैनकम् समानानाम् करोति षोडशभिर्गृह्णाति षोडशकलो वै पुरुषः यावानेव पुरुषः तस्मिन् वीर्यम् दशाति षोडशभिर्जुहोति षोडशभिर्गृह्णाति द्वात्रिंशत्सम्पद्यन्ते द्वात्रिंशदक्षरानुष्टुक भागनिष्टप् सर्वाणि छन्दागुंसि वाचैवैनकम् सर्वे भिच्छन्दोभिरभिषिञ्चति देवीरापः सम्मधुमतेर्मधुमतेभिः सृज्यध्वमित्याह ब्रह्मणैवैनाः सकम् सृजति अनाशिष्टाश्रीदतेत्याह ब्रह्मणैवैनाः साधयति अन्तराहोषष्टिष्टियम् ब्राह्मणाच्छकुंसिनश्च साधयति आग्नेयो विहोताः ऐन्द्रो ब्राह्मणाच्छगुंसि तेजसा जीवेन्द्रेण च भयतो राष्ट्रम् परिगृह्णाति हिरण्येनोत्पुणाति आहुत्यैः पवित्राभ्यामुत्पुनम् दिव्यावृत्त्यै शतमानम् भवति शतायुः पुरुषः सतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति अनभृष्टमसीत्याह अनभृष्टगृह्येतत् वाजोबन्धरित्याह वाजोह्येजबन्धुः तपोजा इत्याह तपोजाह्येतत् सोमस्य दात्रमसीत्याह सोमस्य ह्येतद्दात्रम् शुक्रावशुक्रेणोत्पनामीत्याह शुक्राह्यापः शुक्रकम् हिरण्यम् चन्द्राश्चन्द्रेणेत्याह चन्द्राह्यापः चन्द्रकम् हिरण्यम् अमृता अमृतेणेत्याह अमृताह्यापः अमृतकम् हिरण्यम् स्वाहा राजसूयायेत्याह राजसूयाय ह्येनावत्पुनाति समादोऽद्युम्निरोर्जयेतादिवारण्यर्चा गृह्णाति वरुणसमेवावरुन्धे एकया गृह्णाति एकथैव यजमाने वीर्यम् दधाति क्षत्रस्योऽल्पमसि क्षत्रस्य यो निरसीति तार्पिम् चोष्णीषम् च प्रयच्छति यो नित्वाय एकशरेण दर्भवञ्जीरैः पवयति शतायुर्वै पुरुषशरीर्यः आत्मैकशतः यावानेव पुरुषः तस्मिन् वीर्यम् दधाति दध्याशयति इन्द्रियमेवावरुन्धे उदुम्बरमाशयति अन्नाद्यस्यावरुद्ध्यै चष्टान्यासयति सुराबलिमेवैनम् करोति आवितयेता भवन्ति आवितमेवैनम् गमयन्ति अग्निरेवैनङ्गादिभवद्येनावति इन्द्र इन्द्रियेण पूषा पशुभिः पित्रावरुणौ प्राणापानाभ्याम् इन्द्रो वृत्राय वज्रमुदयच्छत् सदिवमलिखत् सोऽहर्यम् नः पन्था अभवत् सान्नेद्यावा पृथिवी धृतव्रते विद्यावा पृथिवी उपाधावत् साभ्यामेव प्रसूत इन्द्र वृत्राय वज्रम् प्राहरत् काविन्नेद्यावा पृथिवी धृतव्रते इति यदाः आभ्यामेव प्रसूतो यजमानो वज्रम् भ्रातुर्याय प्रहरति आविन्नादे विजदर्विश्वरूपेत्याह इयम् वै देव्यजदर्विश्वरूपी अस्यामेव प्रतिष्ठति आविन्नायमसा वामुष्यायणोऽस्याम् विश्वस्मिन् राष्ट्र इत्याह विषयवेणकौ राष्ट्रेण समर्थयति महते क्षत्राय महताधिपत्याय महते जालराज्यायेत्याह आशिषवे वेतामाशास्ते एषवो भरता राजा सोमोऽस्माकम् ब्राह्मणानागो राजेत्याह तस्मात् सोमराजानो ब्राह्मणाः इन्द्रस्य वज्रो शिवार्थघ्नैति धनः प्रयच्छति विजित्यै शत्रुपाधनाश्चेति शून् शत्रूणेवास्य पाधन्ते पातमा प्रत्यञ्चम् पादमादुर्यम् च मन्मञ्चम् मा पादेत्याह तिस्रो वेशव्याः हृदिश्च नोजे ताभ्य एवैनम् पान्ति दीर्घोमापादेत्याह दीर्घ एवैनम् पान्ति विश्वाभ्युमानाष्ट्राभ्यः पादेत्याह अपरिमिता देवैनम् पान्ति हिरण्यवर्णा वृषसाम् विरोजेत्तृष्टुभावाहो गृह्णाति इन्द्रियम् वे वीर्यम् दृष्टुग इन्द्रियमेव वीर्यमुपरिष्टादात्मम् धत्ते विशोव्यास्थापयति दिशामभिजित्यै हिरणप्रक्रामेत् अभिदिशो जयेत् उत्तमाद्येत् मनसानुप्रक्रामति अभिदिशो जयति नोन्माद्यते समिधमातिष्ठेत्याह तेज एवावरुन्धे उग्रामातिष्ठेत्याह इन्द्रियमेवावरुन्धे विराजमातिष्ठेत्याह अन्नाद्यमेवावरुन्धे उदीजेमातिष्ठेत्याह पशूनेवावरुन्धे ऊर्ध्वामातिष्ठेत्याह स्वर्गमेव लोकमभिजयति अनूर्जिहीते स्वर्गस्य लोकस्य समष्ट्यै मारुत एष भवति अन्नम् वै मरुतः अन्नमेवावरुन्धे एकविंशतिकपालो भवति प्रतिष्ठित्यै योरण्येण वाक्यो गणः सम्मध्यतमुपदधाति ग्राम्येरेव पशुभिरारण्यान् पशून् परिगृह्णाति तस्मात् ग्राम्ये पशुभिरारण्या पशवः परिगृहीताः पृथिर्वेण्यः अभ्यषिष्यत स राष्ट्रम् नाभवत् एतानि पार्थान्यपश्यते आन्यजुहोति तैर्वैष्णराष्ट्रमभवत् यत्पार्थानि जुहोति राष्ट्रमेव भवति बार्हस्पत्यम् पूर्वेणामुत्तमम् भवति ऐन्द्रमुत्तरेषाम् प्रथमम् ब्रह्मदेवास्मै क्षत्रम् च समेति दधाति अथवा ब्रह्मन्नेव क्षत्रम् प्रतिष्ठापयति षट्पुरस्तादविषेकस्य जुहोति षड्परिष्ठात् द्वादशसम्पद्यन्ते द्वादशमासाः संवत्सरः संवत्सरः खलु वै देवानाम् पूः देवानामेव पुरम् मध्यतो व्यवसर्पति तस्य न कुतश्चनोपाव्याधो भवति भूतानामवेष्टेर्जुहोति अत्रात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तदेवैनमवैजते तस्माद्याः सर्वमायुरेति सर्वेभ्यस्य मृत्यवो वेष्टाः तस्माद्राजसूयेन जानो नाभिचरितवे प्रत्यगेणमभिजानशृणुते सोमस्य त्रिषुरसितवेव मे त्रिषद्भोजादिशार्दूलचर्मोपस्तृणादि एव सोमे त्रिषिः याशार्दूले तामेवावरुन्धे मृत्योर्वा एष वर्णः यच्छार्दूलः अमृतकम् हिरण्यम् अमृतमसि मृत्योर्मा पाशीर्हिरण्यमुपास्यति अमृतमेव मृत्योरन्तर्धत्ते शतमानम् भवति शतः यः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यद्योन्मा पाशीत्युपरिष्टादशनिदधाति उभयदेवास्मै शर्म दधाति अवेष्टादन्तसु कार्यपुंसीशेन विध्यति दन्तशोकानेवावेदते तस्मादेवम् दन्तशोकादकुंशुकाः निरस्तन्नमुचेश्वरयति लोहितायसम् निरस्यति वाग्मानमेव नमुचिन्निरवदयते प्राणा आत्मनः पूर्वेऽभिषिक्ष्या इत्याहुः सोमो राजा वरुणः देवाशन्मसुमश्चये ते ते पाचकम् सुबन्ताम् ते ते प्राणकम् सुबन्तामित्याह प्राणानेवात्मनः पूर्वानभिषिञ्चति यद्ब्रूयात् अग्ने स्त्वा तेजसाभिषिञ्चामीति तेजस्वेव स्यात् दुश्चर्मादु भवेत् सोमस्य त्वाद्युम्नेनाभिषिञ्चामीत्याह सौम्यो मे देवतया पुरुषः स्वयैवैनम् देवतयाभिषिञ्चति अग्नेस्तेजसेत्याह तेजदेवास्मिन् दधाति सूर्यस्य वर्तसेत्याह वर्तदेवास्मिन् दधाति इन्द्रस्येन्द्रियेणेत्याह इन्द्रियमेवास्मिन् दधाति मित्रावरुणयोर्वीर्येणेत्याह वीर्यमेवास्मिन् दधाति मरुधामोजसेत्याह ओजयेवास्मिन् दधाति क्षत्राणाम् क्षत्रपतिरसीत्याह क्षत्राणामेवैनम् क्षत्रपतिम् करोति अतिदिवस्पाहेत्याह अत्यन्यान् पाहेति वा वेतदाः समावर्त्रम् न धराकुटेचेदित्याह राष्ट्रमेवास्मिन् ध्रुवमकः उच्छेषणेन जुहोति उच्छेषणभागो वे रुद्रः भागधेयेनैव रुद्रम् निरवदयते उदम् फलेत्याग्नेर्धे जुहोति एषा वे रुद्रस्य लिगे स्वायामेव दिशि रुद्रम् निरवदयते रुद्रयत्यक्रयीपरन्नामेत्याह यद्वास्य क्रयीपरन्नाम तेन वा एष हिनस्ति यगम् हिनस्ति तेनैवेणगम् सहसमयति तस्मै हुतमसि यमेष्टमसीत्याह यमादेवास्य मृत्युमवयजते प्रजापतेन त्वचेतान्यस्य गृहे भूयात् यान् कामयत् राष्ट्रमस्यै प्रजा स्यादिति राष्ट्रमेवास्यै प्रजा भवति वर्णमयेनाध्वर्यलभिषिञ्चति ब्रह्मवर्चसमेवास्मिन् दिशम् दधाति औदुम्बरेण राजन्यः ऊर्जमेवास्मिन्नन्नाद्यम् दधाति आश्वत्थेन वैश्यः विषमेवास्मिन् पुष्टिम् दधाति नैयग्रोधेन जन्यः मित्रान्नेवास्मै कल्पयति अथो प्रतिष्ठित्यै इन्द्रस्य वज्रो शुभार्त्रघ्नैति रसमुपावहरति विजित्यै मित्रावर्णयोस्त्वा प्रशास्त्रोऽशाविनग्मीत्याह ब्रह्मणैवैनम् देवताभ्यायिनक्ति पृष्टिवाहिनञ्जिनक्ति पृष्टिवाही वै देवर्थः देवर्थमेवास्मै जिनक्ति त्वयोश्वा भवन्ति रथश्चतुर्थः दोषो ज्येष्ठसारथी यत्सम्पद्यन्ते यद्वारतवः ऋतुभिरेवैनञ्जिनक्ति विष्णुक्रमान् क्रमते विष्णुरेव भोक्ते मान् लोकानभिजयति यः क्षत्रियः प्रतिहितः सोऽन्वारभते राष्ट्रमेव भवति तृष्टुभान्नारभते इन्द्रियम् वै तृष्टुजे इन्द्रियमेव यजमाने दधाति मरुताम् रसवेदेर्षमित्याह मरुद्भिरेव प्रसूतमुज्जयति आप्तम् मन इत्याह यदेव मनसैप्सीत् तदावत् राजन्यञ्जिनादि मनाक्रान्तदेवाक्रमते विवाजेषेन्द्रियेण वीर्येण लभ्यते यो राजन्यञ्जिनादि समहमिन्द्रियेण वीर्येणेत्याह इन्द्रियमेव वीर्यमात्मन्धत्ते सूनाम् मन्यसुरवे मन्यर्भो यादि दिवाराहेवानहावमन्त्रे पशूनाम् वारेषमन्यः यद्वराहः तेनैव पशूनाम् मन्यमात्मन्धत्ते अभिवायम् शिशुबाणम् कामयते तस्येश्वरेन्द्रियम् वीर्यमादातोः बालाहीरुपाणहावमन्त्रे अस्या एवान्तर्धत्ते इन्द्रियस्य वीर्यस्यानात्ते नमो मात्रे पृथिव्यायित्याहाहिगुंसायै यदस्याविरस्यायुर्मेधेहीत्याह आयेवात्मन्धत्ते ऊर्जस्योर्जम् मेधेहीत्याह ऊर्जमेवात्मन्धत्ते युङ्गशिवर्चो शिवर्चो मयिधेहीत्याह वर्च एवात्मन्धत्ते एकधा ब्रह्मण उपहरति एकथैव यजमानायोर्जम् वर्चो दधाति अथविमोचनीयाजुहोति प्रतिष्ठित्यै त्रयोश्वा भवन्ति रथश्चतुर्थः तस्माच्चतुर्जुहोति यद्भूतः प्रतिष्ठेताम् समानम् लोकमियाताम् रथसङ्गृहेत्रारथवाहनेन समादधाति स्वर्गादेवेन लोकादन्तर्दधाति हंसस्तु चषुत्यादधाति ब्रह्मणैवेनमुपावहरति ब्रह्मणा दधाति अतिच्छन्दसा दधाति अतिच्छन्दावे सर्वाणि छन्दागुन्धे सर्वेभिरेवेण छन्दोभिरादधाति अश्ववागेषा छन्दसाम् यदिच्छन्दाः यदिच्छन्दसा दधाति अष्मैवेन कुंसमानानाम् करोति मित्रोऽसि वरुणोऽसीत्याह मैत्रम् वारुणे रात्रिः अहोरात्राभ्यामेवेन मुपावहरति मित्रोऽसि वरुणोऽसीत्याह मैत्रो वे दक्षिणः वारुणः सव्यः वैश्वदेव्यामिक्षाः स्वमेवेणौ भागधेयमुपावहरति समहम् विश्वेर्देवेरित्याह वैश्वदेव्यो वै प्रजाः ता एवाद्याः कुरुते क्षत्रस्य नाभिरधि क्षत्रस्य योनिरधीत्यधि वासमास्त्रनादृशयोनित्वाय योनामासीदसुषामासीदेत्याह यथा यजुरेवेजते मात्वाहिगुंसेन्मामाहिगुंसेदित्याहाहिगुंसायै विषसादशतव्रतो वरुणः पस्त्याः स्वासाम्राज्यादसुकृतदित्याह साम्राज्यमेवैनगम् सुकृतम् करोति ब्रह्माजन् ब्रह्मादिसविताशसत्यस्वगित्याः सवितारमेवैनगम् सत्यस्वरम् करोति ब्रह्माजन् ब्रह्मासीन्द्रादिसत्यौजा इत्याह इन्द्रमेवैनगम् सत्यौजसम् करोति ब्रह्मा ङ्गाजम् ब्रह्मासु मित्रोदिक्षेमयुत्याह मित्रमेवेणकम् सुषेवम् करोति ब्रह्मा रघुङ्गाजम् ब्रह्मासुवर्णोऽसि सत्यधर्मेत्याह वर्णमेवेणकम् सत्यधर्मानम् करोति सवितासि सत्यसु वैत्याह गायत्रीमेवेतेनाभिव्याहरति
इन्द्रादिसत्यौ जायित्याः दृष्टुपमेवैतेनाभिव्याहरति मित्रादिदृशे वैत्याः जगजीमेवैतेनाभिव्याहरति सत्यमेता देवताः सत्यमेतानिच्छन्दागुंसि सत्यमेवावरुन्धे वरुणादिसत्यसर्वेत्याः अनुष्टुभमेवैतेनाभिव्याहरति सत्यादिदेवानुष्टुप सत्यादिते वरुणः सत्यादिते देवावरुन्धे यैनकम् सत्यादिते उदिते हिग्रस्तः एवम् वेद इन्द्रस्य मन्त्रोऽभ्यैतिस्भ्यम् प्रयच्छति अद्यो वैस्पः वज्रेणैवास्मा अमरपरकम् ग्रन्थयति एवकम् हि लक्षेयः यस्मादेते लब्धेयुः त्रिशोभ्यगम् राजा भोजिति पञ्चाक्षान् प्रयच्छति एते वै सर्वेयाः अपराजा इदमेवैनम् करोति ओदनम् कुरुते परमेष्ठैवा एषः यतोदनः परमामेवेन विश्वम् गमयति सुमङ्गला सत्यराजा नित्याः आसितमेवैतामाशास्ते शौनश्रेणमाख्यापयते वरुणपाशा देवैनम् मुञ्चति परश्रतम् भवति शदायः पुरुषश्रतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति मार्गस्यैकविंशैकपालस्य वैश्वदेव्यैतामक्षायाग्नये स्पष्टकृते समवर्जते देवताभिरेवैनम् भयदः परिगृह्णाति अपान्नत्रे स्वाहोर्जोणत्रे स्वाहाग्नये गृहपदये स्वाहेतिस्राहुतेर्जुहोति प्रहिमे लोकाः येष्वेव लोकेषु प्रतिष्ठति ॐ वरुणस्य सुषुमानस्य दशधेन्द्रियम् वीर्यम् परापतत् तत्सगुंसृद्भिरनुसमसर्तते तत्सगुंसृपागुंसगुंसृत्वम् अग्निना देवेण प्रथमे हन्ननुप्रायन्त सरस्वत्या वाचा द्वितीये सवित्रा प्रथमेन तृतीये ओष्णा पशुभिश्च चतुर्थे बृहस्पतिना ब्रह्मणा पञ्चमे इन्द्रेण देवेन षष्ठे वरुणेण स्वया देवतया सप्तमे सोमेण राज्ञाष्टमे षष्ठारूपेण नवमे विष्णुना यज्ञेनाप्नोत् यत्सगुंसृतो भवन्ति इन्द्रियमेव तद्वीर्यम् यजमानाप्नोति पूर्वा पूर्वावेदिर्भवति इन्द्रियस्य वीर्यस्यावरुद्ध्यै वरस्तादुपसदागुम् सौम्येण प्रचलति सोमो वेदे दोधाः एत एव दन्दधाति अन्तरात्वाष्ट्रेण एत एव हि दन्तष्टारूपाणि विकरोति उपरिष्टाद्वैष्णवेन यज्ञो वे विष्णुः यज्ञदेवान्तः प्रतिष्ठति जामिवा एतत् कुर्वन्ति यत्सद्यो दीक्षयन्ति सद्यः सोमम् क्रीणन्ति पुनरिश्राम् प्रयच्छत्पिलामित्वाय अङ्गिरजस्व वर्गम् लोकयन्तः अप्सदेक्षादपशे प्रावेशयन् तत्पुण्डरीकमभवत् यत्पुण्डरिश्रजाम् प्रयच्छति साक्षादेव दीक्षादपशे अवरुन्धे अशभिर्वत्सतरे सोमम् क्रीणादि विशाक्षदा विराड् अन्नम् विराड् विराजैवान्नाद्यमवरुन्धे पुष्करा भवन्ति धत्वाय दशपेया भवति अन्नाद्यस्यावरुद्ध्यै शतम् ब्राह्मणाः पिबन्ति शतायुः पुरुषश्रतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति सप्तदशज्ञस्तोत्रम् भवति सप्तदशः प्रजापतिः प्रजापतेराद्ये प्राकाशाभद्भर्यमे ददाति प्रकाशमेवैनम् गमयति प्रजमुक्तात्रे देवास्मै वासयति रुक्मगुंहोत्रे आदित्यमेवास्मा उन्नयति अश्वम् रस्तोऽनुप्रतिहर्तृभ्याम् राजापत्यो वाश्वः प्रजापतेरात्यै द्वादशपष्ठो हेर्ब्रह्मणे आयुरेवावरुन्धे विषाम्मयेत्रावरुणाय राष्ट्रमेव वश्यकः ऋषभम् ब्राह्मणाक्षगुंसिने राष्ट्रमेवेन्द्रियाद्यकः वासुशीनेष्टाबोधुर्भ्याम् पवित्रे एवास्यैते
स्थूलियवाचितमच्छावाकाय अन्तत एव वर्णमवेदते रड्वाहमग्नीधे वह्निर्वालड्वान् वह्निरग्नीन् वह्निरेव वह्नियज्ञस्यावरुन्धे इन्द्रस्य सुषुपाणस्य त्रेधेन्द्रियम् वीर्यम् परापतत् भृगस्तृतीयमभवत् सायन्तीयम् तृतीयम् सरस्पते तृतीयम् भार्गवो होता भवति श्रायन्तीयम् ब्रह्मसामम् भवति वारवन्तीयमग्निष्टामसामम् सारस्पतेरपो गृह्णाति इन्द्रियस्य वीर्यस्यावरुद्ध्यै श्रायन्तीयम् ब्रह्मसामम् भवति इन्द्रियमेवास्मिन् वीर्यग्निश्रयति वारवन्तीयमग्निष्टामसामम् इन्द्रियमेवास्मिन् वीर्यम् वारयति ईश्वरो वा एष दिशोनोन्मदितोः यम् दिशो नु व्या स्थापयन्ति दिशामगेष्टयो भवन्ति दिक्ष्वेव प्रतिष्ठत्यमुन्मादाय पञ्चदेवता यजति पञ्चदिशः दिक्ष्वेव प्रतिष्ठति हविषो हविष इष्ट्वाः सत्यमभिधारयति यजमानदेवत्यो वे बृहस्पतिः यजमानमेव तेजसा समर्थयति आदित्याम् मलधाङ्गभ्यमालभते मार्गे वृष्टिम् वष्ठौहि सञ्जैवास्मै राष्ट्रञ्च समेजे दधाति आदित्यया ऊर्वया प्रचलति मारुत्योत्तरया राष्ट्रयैव विषमनुबध्नाति उच्चैरादित्याया आश्रावयति उपागुंसुमारुत्यै तस्माद्राष्ट्रम् विषमति वदति गर्भिण्यादित्या भवति इन्द्रियम् वे गर्भः राष्ट्रमेवेन्द्रियाव्यगः अगर्भा मारुते विद्वै मरुतः विषमेव निरिन्द्रियामगः देवासुराः संयत्तासन् ते देवाश्विना पूषन् वाचः सत्यकम् सन्निधाय अनुतेनासुरानभ्यभवन् ते श्रुभ्याम् भूते पुरोटासन्ताशकरान्यवन् ततो वेते वाचः सत्यमवारुन्धत यश्रुभ्याम् भूते पुरोटासन्ताशकरान्यर्भवते अनिलेनैव भ्रातुर्व्यान विभूय वाचः सत्यमवरुन्धे सरस्पते सत्यवाचेधरम् पूर्वमेवोदितम् उत्तरेणाभिगृणाति सवित्रे सत्यप्रसवाय पुरोडासन्दादशकपालम् प्रसूत्यै दूतान् प्रहिणोति आविद एता भवन्ति आविदमेवैनम् गमयन्ति अथो दूतेभ्य एव न छिद्यते शुक्रदक्षिणासमृद्ध्यै आग्नेयमष्टाकपालम् निर्वपति तस्मात् शिशिरे कुरु पञ्चालाः प्राञ्चो यान्ति सौन्यञ्चलम् तस्मात्सुसन्दव्यवसायादयन्ति सावित्रम् द्वादशकपालम् तस्मात् पुरस्ताद्यमानागम् सवित्रा विरुन्धते बालस्पत्यञ्चलम् सवित्रैव विरुध्य ब्रह्मणाय वानादशते त्वाष्टमष्टाकपालम् रूपान्येव तेन कुर्वते वैश्वादरम् द्वादशकपालम् तस्माद्यघन्येनैताघे प्रत्यञ्जः कुरु पञ्चालायान्ये सारस्पदम् चलम् निर्वपति तस्मात्प्राविशसर्वावाचोपदन्ति औष्ण्येन व्यपश्यन्ति मैत्रेण कृषन्ते वारुणेन विधुरासुरे क्षैत्रपत्येन पाचयन्ते आदित्येनादशते मासिमास्येतानि हवेकंशिषरूप्याणीत्याहुः एव त्वन्पयङ्क इति अथो खल्वाहुः कसंवत्सरञ्जे विश्वजीति षडेव पोर्वेद्यम् निरुप्याणि षडुत्तरेद्यः तेनैव त्वन्पयुङ्क्ते दक्षिणार्थवाहनवाहः पूर्वेषाम् दक्षिणा उत्तर उत्तरेषाम् संवत्सरस्यैवान्तौ युनक्ति सुवर्गस्य लोकस्य समष्ट्यै इन्द्रस्य सुषुमानस्य दशेन्द्रियम् वीर्यम् परावते सयत्प्रथमन्यष्ठीवत् तत्फलमभवत् यद्वितीयम् तद्वदनम् यत्तृतीयम् तत्कर्कन्धो यन्नस्तः स सिंहः यदक्षोः स शार्धूलः यत्कर्णयोः स मृगः यवोर्ध्वः स सोमः यावाजे सासुराः त्रयासक्तवो भवन्ति इन्द्रियस्यावरुद्ध्यै त्रयाणि लोमानि ऋषिमेवावरुन्धे त्रयोद्ग्रहाः वीर्यमेवावरुन्धे नाम्ना दशमी तवे पुरुषे प्राणाः नाभिर्दशमी प्राणा इन्द्रियम् वीर्यम् प्राणादेवेन्द्रियम् वीर्यम् विजमान आत्मन् धत्ते सीधेन क्रीवाच्छष्पाणि क्रीणादि न वा एतदयो न हिरण्यम् यत्सीसम् न स्त्री न पुमान् यत्क्लीपः तसो मोनसुरा यत्सौत्रामणिसमृद्ध्यै स्वाग्नीन्वा स्वादुनेत्याः सोममेवेनाम् करोति सोमाशिष्यभ्याम् पच्छस्व सरस्वत्यै पच्छस्वेन्द्राय सूत्रान्मे पच्छस्वेत्याः एताभ्योऽक्येषा देवताभ्यः पच्यते तिस्रस्तकम् दृष्टा वसति तिस्रोहिरात्रे क्रीतस्वमापसति पुनादिते परिश्रुतमिषा पुनादिव्यावृत्ति पवित्रेण पुनादि पवित्रेण हि सोमम् पुनन्ति वारेण शुष्पसाधनेत्याह वारेण हि सोमम् पुनन्ति वाजः पोतः पवित्रेणेतनेतया पुनीयात् प्रयुद्धाख्येषा अधिपवितस्यैतया पुनीयात् कविदङ्गेत्यनिरुक्तया प्राजापत्रया गृह्णाति अनिरुक्तः प्रजापतिः प्रजापतेरात्यै एकयत्रा गृह्णाति एकथैव यजमाने वीर्यम् दधाति आश्विनम् धूम्रमानभते अश्विनौ वै देवानाम् भिरजौ ताभ्यामेवास्मै भेषजम् करोति सारस्पदम् मेघम् वाग्वै सरस्वती वाग्वैवैनम् भिषज्यति ऐन्द्रमृषभगुंसे तत्राय यत्त्रिषयोगे श्वालभेद बहिर्भास्मा इन्द्रियम् वीर्यम् दध्यात् भ्रातव्यमस्मै जनयेत् एकयोपालभते एकथैवास्मिन्निन्द्रियम् वीर्यम् दधाति नास्मै भ्रातव्यम् जनयति नैतेषाम् पशूनाम् परोडाशा भवन्ति गृहपुरोडाशाह्येते युवकम् सुरामश्विनेति सर्वदेवत्येयाज्ञानुभाग्ये भवतः सर्वा एव देवताः प्रीणाति ब्राह्मणम् परिक्रीणीयादुच्छेषणस्य पातारम् ब्राह्मणाह्याहुत्या उच्छेषणस्य पाता यदि ब्राह्मणम् न विन्देत् अन्येकमपायामवनयेत् सैव ततः प्रायश्चित्तिः यद्वेदोः ब्राह्मण्ये वृद्धम् तदस्य समर्थम् पशवश्च परोडाशाश्च भवन्ति समध्यै ऐन्द्रः पशूनामुत्तमो भवति ऐन्द्रः परोडाशानाम् प्रथमः इन्द्रियेवास्मि समीचे दधाति पुरस्तादनो याजानाम् पुरोडाशे प्रचलति पशवो ये पुरोडाशाः पशूनेवावरुन्धे ऐन्द्रमेकादशकपालन्यर्भवति इन्द्रियमेवावरुन्धे सावित्रम् द्वादशकपालम् प्रसोत्यै वारुणम् दशकपालम् अन्तत एव वरुणमुपयुजते वरपादक्षिणा उत वा एषाश्वकम् सूते उताश्वतरम् उत सोम उतसुरा यत्सोत्रावणे समृद्धे वाढसत्वम् पशुञ्चतुर्थमजमविदस्यालभते ब्रह्मवे देवानाम् बृहस्पतेः ब्रह्मणैव यज्ञस्य व्यर्थमिवपदे पुरोडाशवानेव पशुर्भवति न केतस्य गृहम् गृह्णन्ति स्वमप्रतीकाः पितरस्त्रप्रतेदिशदा दृण्णायागम् समवनयति पुरुषशतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति दक्षिणेऽग्नौजुहोति पापस्य व्यावृत्ते हिरण्यमन्तराधारयति भूतामेवैनाम् जुहोति शतमानम् भवति सदाय पुरुषशतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यत्रैव सदा तृण्णाम् धारयति तन्निदधाति प्रतिष्ठित्ये पुत्रेण वा एतस्येन्द्रियम् वीर्यम् गच्छति एकम् सोमादिपपदे पुत्रणायाव्यानुभाग्याभिरुपतिष्ठते यदेवास्य पुत्रेणेन्द्रियम् वीर्यम् गच्छति तदेवावरुन्धे पितृभिरुपतिष्ठते यतो लोके पितरः तानेव प्रीणादि अथोत्रेण वै यज्ञस्येन्द्रियाणि अध्वर्यनुहोता ब्रह्मा तौ उपतिष्ठन्ते यान्येव यज्ञस्येन्द्रियाणि कैरेवास्मै भेदजम् करोति अग्निष्टोममग्राहति यज्ञमुखम् वा अग्निष्टोमः यज्ञमुखमेवारभ्य समक्रमजे अथैषोभिजयस्त्रिंशपमाना भवति त्रिंशद्वैदेवताः तानेवाप्नोति प्रजापयिष्ठतस्त्रिपुंसः तमेवाप्नोति त्रिपुंशर एषस्तोमा नामयसा पूर्वम् यद्विषमास्तोमाः एतावानवे यज्ञः यावान् पवमानाः अन्तःश्रेष्ठनन्वान्यत् यत्समाः पवमानाः एनाशपुंसरः एन यथा पूर्वम् आत्मनैवाग्निष्टोमेन ध्नोति आत्मना पुण्यो भवति प्रजा वा उत्थानि पशुमुत्थानि यदुच्छा भवत्यनुसन्दत्ते उपत्वा यावयोगिरैर्प्रतिवद्भवति वाग्वै वायुः वायुरेवैषोऽभिषेकः सर्वासामेव प्रजानागुम् शूयते सर्वा एनम् प्रजाराजेति वदन्ति एतमत्यन्तशक्षिभयित्याः आदित्या वै प्रजाः प्रजानामेवैकेन शूयते यन्ति वा एते यज्ञमुखात् ये संभार्या अक्रन् यदा हपस्वभाचो अग्रियै तेनैव यज्ञमुखान् नयन्ते अनुष्टुक्प्रथमा भवति अनुष्टुकुत्तमा वाग्वा अनुष्टुक वाचैव प्रयन्ति वाचोद्यन्ते उद्वरेर्भवन्ति उद्वद्वा अनुष्टुभारूपम् आनष्टुभाराजन्यः तस्मादुद्वदेर्भवन्ति सौर्यनुष्टुकुत्तमा भवति स्वर्गस्य लोकस्य सन्दत्ते यो वै सपादेति नैटकम् सव उपनमते यः सामभ्ययेति पापीयाञ्छसुभाना भवति एतानि खलु वै सामानि यत्पृष्ठानि भवन्ति तैरेव सवान्नैति यानि देव राजानागम् सामानि तैरमस्मिल्लोकरुध्नोति यानि मनुष्यराजानागम् सामानि तैरस्मिल्लोकरुध्नोति उभयोरेव लोकयोरुध्नोति देवलोके च मनुष्यलोके च एकविपुंशोऽभिनेतनीयस्योत्तमो भवति एकविपुंशः केशवनीयस्य प्रथमः सप्तदशोदशमेयः विद्वादेकविपुंसः राष्ट्रपुंसत्रसः विषये वेतन्मध्यतोऽभिषिच्यते तस्माद्वा एषविषाम् प्रियः योगिमध्यतोऽभिषिच्यते यद्वागेन मतो दिशोऽनुव्याः स्थापयन्ति तत्स्वर्गम् लोकमभ्यारोहति यदिमल्लोकम् न प्रत्यवरोहेत् अधिजनम् वेयात् उद्वामाद्येत् यदेशक्रुमा भवति इममेव तेन लोकम् प्रत्यवरोहति असो अस्मिन्नेव लोके प्रतिष्ठत्यन्मादाय इयम् वैरजता असो हरिणी यद्रग्मो भवतः आभ्यामेवेदमभयतः परिगृह्णाति अरुणस्य वा अभिषिच्यमानस्यापः इन्द्रियम् वीर्यम् निरभ्यन् तत्सुवर्णकम् हिरण्यमभवत् यद्रुग्मवन्तर्दधाति इन्द्रियस्य वीर्यस्यानिर्घाताय शतमाना भवति सुरक्षरः शतायुः पुरुषः सदेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति आयुर्वे हिरण्यम् आयुष्या एवेनमभ्यतिक्षरन्ति तेजो वे हिरण्यम् तेजस्या एवेनमभ्यतिक्षरन्ति वर्चो वै हिरण्यम् वर्चस्या एवेनमभ्यतिक्षरन्ति अप्रतिष्ठितो वा एषयित्याहुः रोराजसूर्येण यजति यदा वा एषयतेन द्विरात्रेण यजते अथप्रतिष्ठा अथ संवत्सरमाप्नोति यावन्ति संवत्सरस्याहोरात्राणि तावदेवेदस्य स्तोत्रीयाः अहोरात्रेष्वेव प्रतिष्ठति अग्निष्टोमः पूर्णमहद्भवति अतिरात्र उत्तरम् नाणीनाहोरात्रयोः प्रतिष्ठति पौर्णमास्याम् पूर्णमहद्भवति अष्टकायामुत्तरम् नाणीवार्धमासयोः प्रतिष्ठति अमावास्यायाम् पूर्णमहद्भवति उद्दृष्ट उत्तरम् नानैव मासयोः प्रतिष्ठये असो खलु ये एव समानपक्षे पुण्याहे स्यादा कार्यम् प्रतिष्ठित्ये अपसव्याद्विरात्रैत्याहुः द्वेत्ये देशन्दसि गायत्रम् चत्रैष्टुभम् च जगदे मन्त्रयन्ति न तेन जगति कृतेत्याहुः यदेनान्त्रीयसवने कुर्वन्तीति यदा वा एषा हीनस्याः ध्वजते सान्नस्य पासवनम् अथैव जगति कृता असपशव्यः विष्टर्वा एषद्विरात्रः एवम् विद्वान् विरात्रेण गजते एवास्मावुच्छति असोतम एवापहते अग्निष्टोममन्तराहरति अग्निः सर्वा देवताः स्वेव प्रतिष्ठति
प्रथमाप्तकः समाप्तः।